अथ द्वितीयोऽध्यायः विनियोगः। ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः महालक्ष्मीर्देवता उष्णिच्छन्दः शाकम्भरी शक्तिः दुर्गाबीजम् वायुस्तत्त्वं यजुर्वेदस्वरूपं श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ध्यानम् अक्षस्रत्परशुङ्गदेशुकुलिशं पद्मन्धनुष्कुण्डिकां दण्डं शक्तिमसीचर्मजलजं घण्टां सुराभाजनं शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे सैरिभमर्दिनीमिह महा लक्ष्मीं सरोजस्थिताम्। ॐ ह्रीं ऋषिरुवाच। देवासुरमभूद्युद्धं पूर्णमब्दशतम् पुरा महिषे सुराणामधिपेस्देवानाय च पुरन्दरे तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितं जित्वा च सकलान् देवानिन्द्रो भूर्महिषासुरः। ततः पराजिता देवाः पद्मयोनिं प्रजापतिं पुरस्कृत्य गतास्तत्र यत्रेष गरुडध्वजौ तथा वृत्तन्तयोस्तद्वन्महिषासुरचेष्टितम्। त्रिदशाक् कथयामासुर्देवाभिभवविस्तरम्। सूर्येन्द्राग्न्यनिलेन्दूनाय यमस्य वरुणस्य च अन्येषाय चाधिकारान् स स्वयमेवाधितिष्ठति। स्वर्गानिराकृता सर्वे तेन देवगणा भुवि विचरन्ति यथामर्त्या महिषेण दुरात्मना। एतद्वक् कथितं सर्वममरारिविचेष्टितम्। शरणवः प्रपन्नास्मो वधस्तस्य विचिन्त्यताम्। इत्थं निशम्य देवानावचांसि मधुसूदनः चकारकोपं शम्भुश्च भ्रुकुटीकुटिलाननौ। ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः निश्चक्राममहत्तेजो ब्रह्मणशङ्करस्य च अन्येषाय चैव देवानां चक्रादीनां शरीरतः निर्गतं सुमहे तेजस् तच्चैक्यं समगच्छत। अतीव तेजसकूटै ज्वलन्तमिव पर्वतम् ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलं तत्र तत्तेजस्सर्वदेवशरीरजम् एकस्थं तदभूनारी व्याप्तलोकत्रयं त्विषा यदभूच्छां भवन्तेजस्तेनाजायत तन्मुखं याम्नेन चाभवन् केशा बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मं मध्यै चैन्द्रेण चाभवत् वारुणेन च जङ्घोरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्कतेजसा वसूनाय च कराङ्गुल्यक् कौबेरेण च नासिका तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा नयनत्रितयी जज्ञे तथा पावकतेजसा भ्रुवो च सन्ध्ययोस्तेजश्रवणावनिलस्य च अन्येषाय चैव देवानां सम्भवस्तेजसां शिवा ततस्तमस्तदेवानां तेजो राशिसमुद्भवां तां विलोक्यमुदं प्रापु रमरामहिषार्दिताः शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् चक्रै च दत्तवान् कृष्णस्समुत्पाद्य स्वचक्रतः शङ्खै च वरुणशक्तिं ददौ तस्यै हुताशनः मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधि वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः ददौ तस्यै सहस्राक्षो घण्टामयीरावतार्गजात् कालदण्डाद्यमोदण्डं पाशै चाम्बुपतिर्ददौ प्रजापतिश्चाक्षमालान् ददौ ब्रह्माकमण्डलुम् समस्तरोमकूपेषु निजरश्मीन् दिवाकरः कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् क्षीरोदश्चामलं हारमजरे च तथाम्बरे चूडामणिं तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुनि चातिनिर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यैच दंशनम् अम्लानपङ्कजामालां शिरस्युरसि चापराम् अददज्जलधिः सस्यै पङ्कजै चातिशोभनम् हिमवान्वाहनं सिंहं रत्नानि विविधानि च ददावशून्यं सुरया पानपत्रं धनाधिपः शेषश्च सर्वनागेषु महामणिविभूषितम् नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा सम्मानितानादोच्चैः साट्टहासं मुहुर्मुहुः तस्यानादेन घोरेण कृत्स्नमापूरितन्नभः अमायतातिमहता प्रतिशब्दो महानभूत् चुक्षुभुस्सकला लोका समुद्राश्च च कम्पिरे चचालवसुधा चेलुः सकलाश्च महीधरा जयेति देवाश्च मुदा चामूचुस्सिंहवाहिनी तुष्टुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः सन्नद्धाखिलसैन्यास्ते समुत्तस्तुरुदायुधाः आख् किमेतदिति क्रोधादाभाष्य महिषासुरः अभ्यधावत तं शब्दमशेषैरसुरैरृतः सददर्श ततो देवी व्याप्तलोकत्रयान्त्विषा पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बरां क्षोभिताशेषपातालान् धनुर्ज्यानिस्वनीनताम् दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिता ततः प्रववृते युद्धं तया देव्यासुरद्विषाम् शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् महिषासुरसेनानीश्चिक्षुराख्यो महासुरः युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः रथानामयुतैः षड्भिः रुदग्राख्यो महासुरः अयुध्यतायुतानाय च सहस्रेण महाहनुः पैचाशद्भिश्च नियुतैरसिलो मा महासुरः अयुतानां शतैषड्भिर् बाष्कलो युयुधीरणे गजवाजिसहस्रौघैरनेकैः परिवारितः वृतो रथानां कोट्या च युद्धे तस्मिन्न युध्यत बिडालाख्यो युतानाय च पैचाशद्भिरथायुतैः युयुधे संयुगे तत्र रथानां परिवारितः अन्ये च तत्रायुतशो रथनागहयैर्वृताः युयुधुस्संयुगे देव्या सह तत्र महासुराः कोटिकोटिसहस्रैस्तौ रथानां दन्तिनां तथा हयानाय च वृतो युद्धे तत्राभून्महिषासुरः तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा युयुधुस्संयुगे देव्या खड्गैः परशुपट्टिशैः केचिच्च चिक्षिपुःशक्ति केचित् पाशांस्तथा परे देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी अनायस्तानना देवी स्तूयमाना सुरर्षिभिः मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी सोऽपि क्रुद्धो धृतसटो देव्या वाहनकेसरी चचारासुरसैन्येषु वनेष्विवहुताशनः निःश्वासान्मुचेयांश्च युध्यमानारणीम्बिका तैव सद्यः सम्भूता गणाशतसहस्रशः युयुधुस्ते परशुभिर्भिन्दिपालासि पट्टिशैः नाशयन्तो सुरगणान् देवी शक्त्युपबृंहिता अवादयन्तपटहान् गणाशङ्खांस्तथा परि मृदङ्गाश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्च शतशो निजघानमहासुरान् पातयामास चैवान्यान् घण्टास्वनविमोहितान् असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् केचिद्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथा परि विपोथितानि पातेन गदया भुविशेरते विमुश्च केचिद्रुधिरं मुसलेन वृषं हताः केचिन्निपतिता भूमौ भिन्ना शूलेन वक्षसि निरन्तरा शरौघेण कृताः केचिद्रणाजिरे श्येनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः केशाय चिद्बाहवश्चिन्नाश्चिन्नग्रीवास्तथा परे शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः विच्छिन्नजङ्घास्त्वपरे पेतुरुव्यामहासुराः एकबाह्वक्षिचरणात् केचिद्देव्या द्विधा कृताः छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः कबन्धायुयुधुर्देव्या गृहीत परमायुधाः न नृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः कबन्धाश्चिन्नशिरसः खड्गशक्त्युष्टिपाणयः तिष्ठतिष्ठेति भाषन्तो देवी मन्ये महासुराः पातितैरथनागाश्वैरसुरैश्च वसुन्धरा अगम्या सा भवत्तत्र यत्राभूत् स महारणः शोणितौघा महानद्यः सद्यस्तत्र प्रसुश्रुः मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् क्षणेन तन्महासैन्यमसुराणां तथाम्बिका निन्येक्षयै यथा वह्निस्तृणदारुमहाचयम् स च सिंहो महानाद मुत्सृजन्धुतकेसरः शरीरेभ्योमरारीणामसूनिव विचिन्वति देव्या गणैश्च तैस्तत्र कृतैर्युद्धं महासुरैः यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचोदिरि इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः।